एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः प्रतिनिधि सभायाम् आगामिनः आर्थिक वर्षस्य कृते विनियुक्तस्य आयव्ययकस्य विमर्शनस्य क्रमे सांसदैः उत्थापितानाम् प्रश्नानाम् सम्बद्ध मन्त्रिभिः उत्तर प्रदानस्य क्रमः प्रारब्धो वर्तते। प्रतिनिधिसभाया ह्यस्तने द्वितीयोपवेशे स्वस्य मन्त्रालयस्य अन्तर्गतम् उत्थापितान् प्रश्नान् उत्तरयन् स्वास्थ्य जनसंख्या मन्त्री प्रदीप यादवः चिकित्सालयेषु आवश्यक प्रविधीन् उपकरणानि च प्रापयितुम् विपन्न नागरिकेभ्यः सहज स्वास्थ्य सेवाम् प्रदा तुञ्च आयव्ययके प्रबन्धनम् विहितमस्तीति अज्ञापयत। स्वास्थ्यमन्त्री यादवः सांसदै उत्थापिताः विषयाः स्वास्थ्यसेवायाः प्रभावकारितायै सान्दर्भिकाः सन्ति, तदनुरूपमेव आयव्ययकस्य क्रियान्वयनाय मन्त्रालयेन विशेषेण ध्यानम् दत्त्वा कार्यम् विधास्यते इति प्रतिबद्धताम् व्यक्तवान्। तत्पूर्वम् एतद् विक्रमवर्षीयस्य विनियोजन विधेयकस्य अन्तर्गतम् युवक्रीडा मन्त्रालयस्य शीर्षकाणि आश्रित्य विहिते विमर्शने सांसदाः क्रीडकेभ्यः प्रशिक्षणस्य वेतनभरणयोश्च व्यवस्थायै क्रीडकानां भविष्यस्य सुनिश्चिततायै क्रीडा प्रांगणानां निर्माणाय च बलं प्रादुः। तत्पूर्वम् उपवेशस्य प्रारम्भे सांसदाः दुग्धकृषकैः समयेव दुग्धस्य मूल्यस्य अप्राप्तेः कारणेन आन्दोलने विद्यमानतायाः विषये सर्वकारस्य ध्यानाकर्षणं विधाय आन्दोलनरत कृषकैः सह वार्तां समयेव प्रदेयवित्तं प्रदातुं च अयाचन्त। सांसदाः पिदापनावस्थायाः उद्योगानां पुनः सञ्चालनस्य, वृष्टेः कारणेन सृष्टानां समस्यानां समाधानस्य, ज्येष्ठ नागरिकेभ्यः सामाजिक सुरक्षा भरणस्य प्रक्रियायाः सहजीकरणस्य च विषयेषु सर्वकारस्य ध्यानम् आकर्षयन्। प्रतिनिधिसभायाः अपर उपवेशः अद्य पूर्वाह्नस्य एकादशवादने वसति। नेपाली कांग्रेस दलस्य संसदीय दलस्योपवेश स्वशुक्रवासरे वस्ता। नयाँ वानेश्वरवर्तिनी संघीय संसद भवनस्य लोत्से प्रकोष्ठे दिवात्रिवादने उपवेक्षमाणे उपवेशे सामयिक राजनीतिक विषयेषु विमृक्षते इति संसदीय दलस्य कार्यालयेन ज्ञापितम् वर्तते। राष्ट्रपतिः रामचन्द्र पौडेलः स्विजरल्याण्ड देशस्य, जर्मनी देशस्य च एकसप्ताहात्मकं भ्रमणं प्रपूर्य ह्यः स्वदेशं प्रत्यागतोऽस्ति। राष्ट्रपतेः पौडेलस्य त्रिभुवनान्तर्राष्ट्रिय विमानस्थलस्य अतिविशिष्ट कक्षे उपराष्ट्रपतिः रामसहाय प्रसाद यादवः, प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः, सभामुखः देवराज घिमिरे, राष्ट्रियसभायाः अध्यक्षः नारायण प्रसाद दाहालः, उपप्रधान परराष्ट्रमन्त्री नारायणकाली श्रेष्ठश्च स्वागतं विहितवन्तः। राष्ट्रपतिः पौडेलः गत ज्येष्ठ मासस्य ऊनत्रिंशे दिवसे स्विजरल्याण्ड देशस्य जेनेवा नगरे आयोजितस्य द्वादशोत्तर शततमस्य अन्तर्राष्ट्रिय श्रम सम्मेलनस्य उच्चस्तरीय उपवेशे सहभागितायै तत्र प्रस्थितः आसीत्। तत एव राष्ट्रपतिः पौडेला आषाढस्य प्रथमे दिवसे जर्मनी देशे सम्प्राप्तश्च आसीत्। संचार सूचना प्रविधि मन्त्री रेखा शर्मा वर्षायामस्य आरभणेन सहैव सम्भावितानां जलविप्लव भूक्षय वज्रपात प्रवृत्तिनां विपदां कारणेन सम्भावितां क्षतिं न्यूनीकर्तुम् अन्तर्गतान् निकायान् निर्दिशति। वर्षाणां कारणात् सम्भावितायाः जनधनक्षतेः न्यूनीकरणाय समयेव जनसञ्चेतनायाः प्रसारणाय च अन्तर्गतैः निकायैः विधीयमानानां पूर्वकार्याणां विषये जिज्ञासमाना संचारमन्त्री शर्मा विपदः समये तत्कालं सम्पर्कस्य, सूचना प्रवाहस्य च कार्यं प्रभावपूर्णं सम्पादयितुं परामृष्टवती। उपप्रधान गृहमन्त्री रवि लामिछाने निगदति देशजनतयोः सेवायाम् अहोरात्रः क्रियारतस्य नेपाल प्रहरिणः व्यस्तायां समाभयपूर्णायां च कठिन जीवनशैल्यां योगाभ्यासेन शारीरिकरूपेण मानसरूपेण च सहयोगः प्राप्यते। दशमान्तर्राष्ट्रिय योग दिवसस्य अवसरे पतञ्जलि योग समिति नेपालस्य सहकार्येण नेपाल प्रहरिणा ह्य नक्सालवर्तिनी प्रहरी मुख्यालय आयोजिते योग विज्ञान प्रशिक्षणे गृहमन्त्री लामिछाने योगेन प्राणायामेन च सेवा प्रवाहेऽपि प्रभावकारिता आनीयते इति प्रावोचत। गृहमन्त्री लामिछाने प्रहरिणा उपस्थितिम् दृष्ट्वा प्रत्येकं नागरिकेण सुरक्षानुभवस्य स्थितेः निर्माणाय बलं ददत्। एतदर्थं शरीरेण सह मनसः अवस्थया स्वस्थया भाव्यमिति प्रावोचत। योगदिवसस्य सन्दर्भे ह्य भारतीय दूतावासेन पोखरावर्तिनः फेवा ह्रदस्य तटे योग प्रदर्शनम् आयोजितम् आसीत्। संस्कृति पर्यटन नागरिक उड्डयन मन्त्री हितबहादुर तामाङ कथयति संस्कृतेः प्रवर्धनेन राष्ट्रस्य समृद्धिः सम्भवति। सांस्कृतिक संस्थानस्य 250वां वार्षिकोत्सवस्य अवसरे ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री तामाङ समाजे जागरणस्य सशक्त माध्यमस्य रूपेण स्थिताः संस्कृतयः पर्यटनेन सह संयोजिताः सत्यः समृद्धौ योगदानं भवतीति प्रत्यपादयत। मन्त्री तामाङ नेपालः बहुजातीयः बहुभाषिकः बहुसांस्कृतिकश्च देशोऽस्तीत्यतः संस्कृतीनां संरक्षणं विधाय अग्रे वर्धनस्य आवश्यकतां न्यश्चिनोत्। केन्द्रीय अनुसन्धान निकायेन 60 किलो परिमाणस्य सुवर्ण तस्करस्य प्रकरणे अन्यौ द्वौ जनौ निगृहीतौ स्तः। सुवर्ण तस्करस्याभियोगे भक्तपुर जनपदस्य 32वर्षीय मनोज श्रेष्ठ रूपक भण्डारी च निगृहीतौ इति केन्द्रीय अनुसन्धान निकायस्य प्रवक्ता प्रहरी परीक्षक होविन्द्र बोगटी अज्ञापयत। 60 किलो परिमाणस्य सुवर्ण तस्करस्य प्रकरणस्य द्वितीय चरणस्य अनुसन्धानस्य क्रमे 20 जना निगृहीता सन्तीति प्रवक्ता बोगटी असूचयत। मेलञ्ची पेयजल समित्या श्वशुक्रवासरात् काष्ठमण्डपोपत्यकायाम् आयोजनायाः पेयजलं न प्रेषयिष्यते। वर्षायामस्य आरभणेन सैव नद्यां जलप्रवाह वर्धितोऽस्ति त्यतः आयोजनां जलविप्लवस्य संकटात् संरक्षितुं दलस्य जलस्य प्रेषणं स्थगितमिति समितेः कार्यकारी निर्देशक रत्नलामिछाने असूचयत। वर्षायामे विपदः संकटस्य सम्भावना भवतीति कारणेन वर्षायामस्य अनन्तरमेव मेलञ्ची नद्याः पेयजलं काष्ठमण्डपं प्रेषयिष्यते इति निर्देशक लामिछाने अज्ञापयत। लामिछाने इत्यस्य अनुसारेण प्रतिदिनं 17 कोटि लिटर परिमितं जलम् उपत्यकावासिभ्यः वितीर्यते इति कथितं सदपि सम्प्रति मेलञ्ची पेयजलायोजनातः प्रतिदिनं 20 कोटि लिटरमितं जलं वितीर्यमाणं वर्तते। दुग्धोत्पादक कृषकैः स्वेन विक्रितस्य दुग्धस्य मूल्यस्य याचनां विधाय केन्द्रीय दुग्ध सहकारी संघस्य नेतृत्वे ह्य लयञ्चोरवर्तिना दुग्ध विकास संस्थानस्य प्राङ्गणे विरोध प्रदर्शनं विहितं वर्तते। संघस्य केन्द्रीय कोषाध्यक्ष बालकृष्ण उप्रेति दुग्ध विकास संस्थानेन कृषकाणां सत्तानां मासानां दुग्धस्य प्रदेय वित्तं दत्तं नास्ति इति कारणेन आन्दोलनं कर्तव्यम् अभूत् इति समस्पष्टयत।